सर्वेषाम् अस्मिन् पाणिनीयवर्गे व्याकरण पाणिनीयव्याकरणवर्गे स्वागतम्। फेनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन द्रौदागिरः पुंसां विमलै शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीसूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः। सर्वे करपत्रं स्वीकरोतु। अष्टाध्याय्याः समग्रदृष्टिः इति करपत्रं, तत्र पुटसङ्ख्या 12 इति आगच्छतु। अत्र अधिकरणसंज्ञा तावत्पर्यन्तं वयं दृष्टवन्तः गतसप्ताहे।
पृष्ठसङ्ख्या किं भवति?
द्वादश। अत्र सूत्रसङ्ख्या कीदृशं सूत्रम्, अर्थः इति वयं कुत्र अस्ति इति चेत् प्रथमाध्यायस्य चतुर्थपादः अस्ति खलु। अत्र कारकविधायकसूत्राणि वर्तते इदानीं, तस्य विषये इदानीं पाठः जायमानमस्ति। तर्हि अत्र कारकविधायकसूत्रं वयं दृष्टवन्तः, तेषु अधिकरणसंज्ञापर्यन्तं गतसप्ताहे दृष्टवन्तः। तर्हि पुनः एकवारं कारके इति अधिकारसूत्रं प्रथम अध्यायस्य चतुर्थपादस्य त्रयोविंशतितमसूत्रात् आरभ्य प्रथम अध्यायस्य चतुर्थपादस्य पञ्चपञ्चाशत् सूत्रपर्यन्तं कारके इति अधिकारस्य परिधिः वर्तते। अत्र कानिचन सूत्राणि अधोभागे दत्तमस्ति। अपादानसंज्ञा, सम्प्रदानसंज्ञा, करणसंज्ञा, अधिकरणसंज्ञा, पश्चात् कर्तुरीप्सिततमं कर्म इत्यनेन कर्ता क्रिया किञ्चित् फलम् इच्छति, तत् फलं यत्र सम्बन्धं भवतु इति इच्छति, तत्रैव तद् यत्र सम्बन्धं भवतु इति इच्छति इति उक्तं खलु, तदेव ईप्सिततमम् इति उक्तम्। अत्र इच्छा अस्ति चेदेव ईप्सिततमम् इति वक्तुं शक्यते, तद् कर्मसंज्ञां प्राप्नोति। उदाहरणमस्ति, पाचकः अन्नं पचति। पचि धातोः अर्थः अस्ति विक्लिप्तरूपं फलम्, इत्युक्ते तत्र यदा पाककार्यं जायते तस्य मृदुलता भवति खलु, विकारः, तदेव विक्लिप्ति इति उक्तम्। अन्ने तत् फलं कुत्र इच्छितम्, अत्र इच्छा कुत्र वर्तते, अन्ने एव तत् फलं वर्तते खलु, अतः अन्नं कर्मसंज्ञा प्राप्नोति। पश्चात् स्वतन्त्रकर्ता, कर्तृसंज्ञाविधायकसूत्रमस्ति स्वतन्त्रकर्ता। धातोः अर्थः, धातोः अर्थद्वयं वर्तते, एकं तु फलं, द्वितीयमस्ति व्यापारः। अतः व्यापारस्य यः आश्रयः सः एव कर्ता, सः स्वतन्त्रः अस्ति खलु, इति कृत्वा स्वतन्त्रकर्ता। बालः खादति, खादधातोः अर्थः भक्षणक्रिया, भक्षणक्रियायाः आश्रयः बालः, अतः सः कर्ता। यदि बालः पठति इति वदामः चेत् पठधातोः ये अर्थः पठनक्रिया, तर्हि तादृशक्रियायाः आश्रयः बालः, तर्हि बालः अस्ति अत्र स्वतन्त्रकर्ता। माता पचति इति वदामः चेत् पाककार्यं, पाक रूपक्रिया अत्र धातोः पठति इत्यस्य अर्थः अस्य आश्रयः मातुः अस्ति तर्हि माता अत्र स्वतन्त्रकर्ता इदानीं हेतुश्च तत्प्रयोजको हेतुश्च इति एकं सूत्रं तदपि कर्तृसंज्ञा विधायकसूत्रमस्ति कार्यार्थे यः प्रेरयति सः कर्ता हेतुः च इत्युक्ते वयं पूर्वं दृष्टवन्तः यदा अत्र गीतासोपानवर्गे सर्वम् आसीत् यत्र कर्ता द्वयम् आगच्छति एकं तु कर्मणि प्रयोगे तृतीयाविभक्तिः इति यदा वदामः अत्र प्रयोजककर्ता प्रयोज्यकर्ता इति पठितं तर्हि तादृश प्रसङ्गः यत्र आगच्छति तत्र केन सूत्रेण कर्तृसंज्ञा इति चेत् तत्प्रयोजको हेतुश्च इत्यनेन कार्यार्थं यः प्रेरयति सः कर्ता हेतुः च सः कर्ता अपि अस्ति हेतुः अपि अस्ति अतः चकारेण उक्तं माता बालकेन अन्नं खादयति अतः प्रयोजककर्ता अनेन सूत्रेण कर्तृसंज्ञा प्राप्नोति प्रागीश्वर ईश्वरा निपातः इति एकसूत्रं निपातस्य विधायकसूत्रं निपातसंज्ञा अधिकारः अनेन एव निपाता इति संज्ञा आगतम् अत्र प्राग् इति गणस्य शब्दः अस्ति प्राग् ईश्वरा निपातश्च एकनिमिषम् अस्मिन् प्रसङ्गे किमपि अन्यत् अस्ति वा इति पश्यामि एतदपि अधिकारः अस्ति अधीश्वरे इति तावत्पर्यन्तम् एकनिमिषम् आकटारात् एका संज्ञा प्रागेश्वरनिपाताः निपातसंज्ञा निपातसंज्ञाधिकारः संज्ञासूत्रमेव सर्वाणि निपातकानि अव्ययसंज्ञकानि प्रातिपदिकानि च अव्ययसंज्ञकेन सूत्रेण इति चेत् स्वरादिनिपातम् अव्ययम् इति सूत्रं तर्हि अस्मिन् सूत्रे निपाता इति संज्ञा आगच्छति अतः निपातः निपातानि निपातकानि अव्ययसंज्ञकानि इति उक्तम् आम् इति निपातं विहाय अन्ये निपातसंज्ञकाः शब्दाः एकाच्छकाः सन्ति इत्युक्ते येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनं नास्ति तेषां निपात एकाच् नाम् इति सूत्रेण प्रगृह्यम् इति संज्ञा आ इ उ ऋ ए ऐ ओ औ एते सर्वं प्रगृह्यसंज्ञकाः निपातकाः इति उक्तम् तर्हि एतदपि अधिकारः एव कियत्पर्यन्तं वर्तते इति चेत् प्रथम अध्यायस्य चतुर्थपादस्य षट्पञ्चाशत् यतोहि अत्र पञ्चपञ्चाशत् सूत्रपर्यन्तं कस्य अधिकारः कारके इत्यस्य अधिकारः षट्पञ्चाशत् आरभ्य सप्तनवतिसूत्रपर्यन्तं निपातसंज्ञाधिकारः प्रादयः अपि निपातसंज्ञा प्रादयः प्रा परा अपा सम् अनु औ निस् निर् दुस् दुर् वि आ नि अथि अपि अति सु उत् अभि प्रति परि उपा एते सर्वे निपातः निपातकाः इत्युक्ते द्वाविंशतिनिपातकाः उपसर्गाः क्रियायोगे इति सूत्रेण किं भवति इति चेत् उपसर्गसंज्ञा अनेन सूत्रेण विधीयते क्रियायोगे प्रादयः उपसर्गाः भवति इति आशयः तर्हि त्रयोदशकरपत्रं पुनः समाप्तम् इदानीं पुनः आगच्छतु नः परस्मैपदम् इति लकारस्य विषये चिन्तनम् आरब्धम् इदानीम् लक्ष्मी भगिनी भगिनी पठतु
आं भगिनि लः परस्मैपदम्
तदेव
अत्र खलु
अत्रैव
प्रथमाध्याये चतुर्थपादे नवनवतितमसूत्र परस्मैपदसंज्ञा लः स्थाने विद्यमानाः तिङ् प्रत्ययाः परस्मैपदसंज्ञकाः तङ्गानावात्मनेपदम् प्रथमाध्याये चतुर्थपाद एकशतं तमसूत्र आत्मनेपदसंज्ञा लः स्थाने विद्यमानाः तङ् प्रत्ययाः आन शानज् प्रत्ययः च आत्मनेपदसंज्ञकाः तिङ् तिङ्स्त्रीणि त्रीणि प्रथम मध्यमोत्तमाः प्रथमाध्याये चतुर्थपाद एक अधिक एकशतं तमसूत्र प्रथम मध्यम उत्तम संज्ञा तिङ् तिङ्गः त्रीणि त्रीणि
प्रथम भगिनी सूत्रसङ्ख्या पुनः वदतु
प्रथमाध्याय चतुर्थपाद एक अधिक एकशततमसूत्र सम्यक् वा
इदानीं सम्यक्
तिङ्गः त्रीणि त्रीणि प्रथम मध्यम उत्तमाः तान्येकवचन द्विवचन बहुवचनान्ये
अनेन सूत्रेण एव अत्र सिप्तस्थि इति प्रथमा अस्ति सिप्तस्था इति मध्यमा अस्ति मिप् वस् मस् इति उत्तमा अस्ति खलु तद्वत् ता आदां छ इति प्रथमा थास् आधां त्वम् इति मध्यमा इत् वहि महि इति उत्तम अनेन परस्मैपदिप्रत्ययस्य प्रथम मध्यम उत्तम विभागः ज्ञायते तथा आत्मनेपदिप्रत्ययस्यापि एतादृश पृथक्करणं जातम्
तान्येकवचन द्विवचन बहुवचनान्येकषः प्रथमाध्याये चतुर्थपादः द्वि अधिक एकशततमसूत्र एकवचन द्विवचन बहुवचनसंज्ञा तिङ्गः त्रीणि त्रीणि वचनानि एकशः प्रत्येकं वचन एकवचनं द्विवचन बहुवचनसंज्ञानि सुपः प्रथमाध्याय चतुर्थपाद तृतीय त्रि अधिक एकशततमसूत्र
इत्युक्ते पूर्वतनसूत्रेण प्रथमं किम् आसीत् ल परस्मैपदम् इत्यनेन सर्वेषां लकाराणां किं भवति परस्मैपदसंज्ञा विधीयते तिप्तस्थि इति यत्र आगच्छति तत्र सर्वत्र परस्मैपदसंज्ञा पश्चात् यत्र तङ्गानाम् आत्मनेपदम् इति सूत्रं यदा आगच्छति तत्र सङ् प्रत्ययाः आत्मनेपदसंज्ञा इति उक्तम्। यत्र सिंहः त्रीणि त्रीणि इति आगतं तत्र प्रथमा मध्यमा उत्तमा इति भेदः जातः। इदानीं तान् एकवचन द्विवचन बहुवचन अनेकशः इत्यनेन तिप्थि इति अस्ति खलु, अत्र तिप् इति एकवचनं, तस् इति द्विवचनं, छि इति बहुवचनं, सिप् इति एकवचनं, वस् धस् इति द्विवचनं, था इति बहुवचनं, तादृश पुनः पृथक्करणं जातम्। अग्रे
विभक्तिष्ठ सुपः, सोरि सुपः प्रथमाध्याये चतुर्थपाद त्रि अधिक एकशततमसूत्र एकवचन द्विवचन बहुवचनसंज्ञा सुपः त्रीणि त्रीणि वचनानि एकशः प्रत्येकम् एकवचन द्विवचन बहुवचनसंज्ञानि विभक्तिश्च प्रथमाध्याये चतुर्थपादे चतुर् अधिक एकशततमसूत्र विभक्तिसंज्ञा सुप्तिगन्तौ विभक्तिसंज्ञौ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः प्रथम अध्याये चतुर्थपादे पञ्च अधिक एकशततमसूत्र मध्यमपुरुषविधिः युष्मदि उपपदे समानाधिकरणे सति मध्यमपुरुषप्रत्ययः स्थानिनि सति अपि अस्थानीनि सति अपि युष्मद्शब्दः प्रयुक्ते सति अप्रयुक्ते सति वा।
तर्हि सुपः इत्यनेन किम् उक्तम् इति सुप्रत्ययः, पूर्वं तिङ्प्रत्ययानां विषये तिङ्गः त्रीणि त्रीणि इति उक्तं खलु, पश्चात् तान् एकवचन द्विवचन इति अपि तिङ्प्रत्ययानां विषये उक्तम्। इदानीं सुप्रत्ययः तत्रापि किमस्ति, त्रीणि त्रीणि एव सुऔजस् इति अस्ति खलु, अत्र सु इति एकवचनम्, औ इति द्विवचनं, जस् इति बहुवचनम् इति वक्तव्यं, तदर्थम् एषः सूत्रम् अत्र कार्यं करोति। विभक्तिश्च इति किम् अस्ति, सुप्रत्ययस्य अपि च तिङ्प्रत्ययस्य विभक्तिसंज्ञा प्राप्नोति अनेन। युष्मत् उपपदे
वदतु भगिनि, युष्मदि उपपदे समानाधिकरणे किञ्चित् तत्
तत्रैव आगतम् युष्मद् युष्मद् उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः इत्युक्ते पूर्वं तिङ्गः त्रीणि त्रीणि इति सूत्रेण प्रथम मध्यम उत्तमाः इति उक्तं खलु, तर्हि इदानीं मध्यमसंज्ञा कस्य भवति, यत्र युष्मदि उपपदे समानाधिकरणे इति पदमस्ति खलु, अत्र युष्मदि उपपदे समानाधिकरणे सति इति सप्तम्यन्तं प्रयोगः। समानाधिकरणम् इत्युक्ते समानकारकस्य निर्देशः, उन्नतः रामः चलति इति अस्मिन् वाक्ये सर्वे शब्दाः कर्तारं निर्दिशति, अतः सर्वे शब्दाः समानाधिकरणः सन्ति इति वयं जानीमः। तर्हि समानाधिकरणं वाक्ये कथं भवति इति चेत् अत्र तिङ्प्रत्ययस्य समानाधिकरण्यम् इति वयं वदामः। कथं जानीमः इति चेत् इत्युक्ते सूत्रे यः मध्यमशब्दः प्रयुक्तः अस्ति सः तिङ्प्रत्ययानां विषये एव प्रयुज्यते, कस्य समानाधिकरण्यं, तिङ्प्रत्ययस्य समानाधिकरण्यं कथं ज्ञायते, सूत्रे यः मध्यमशब्दः प्रयुक्तः अस्ति सः तिङ्प्रत्ययानां विषये एव प्रयुज्यते। उपपदम् इत्युक्ते समीपस्थं पदम्, अतः अस्य खण्डस्य अर्थः अयं युष्मत् उपपदे तिङ्प्रत्ययस्य सामानाधिकरण्यं यदा उच्यते तदा. तर्हि अस्य उदाहरणं पश्यामः. अत्र समानाधिकरण्यं कथम् इति चेत् युष्मति उपपदे इति अस्ति खलु, युष्मति इति सप्तम्यन्तं पदम्, उपपदे इति अपि सप्तम्यन्तं पदम्. तर्हि समानविभक्तिकत्वम् अत्र आगच्छति, तदेव अत्र समानाधिकरण्यम् इत्यनेन विवक्षितम्. तर्हि युष्मति उपपदे प्रयुज्यमाने सति अथवा अप्रयुज्यमाने सति अपि मध्यमपुरुषवाचिनः प्रत्ययाः प्रयुज्यते. तर्हि उपपदत्वेन उष्मत् शब्दः प्रयुक्तं चेदपि न चेदपि अत्र मध्यमपुरुषशब्दः प्रयोक्तुं शक्यते. त्वं पठसि, उदाहरणं पठामि इदानीं. त्वं पठसि, अस्मिन् वाक्ये त्वं तथा पठसि अनयोः शब्दयोः कर्तनिर्देशः क्रियते. अतः अत्र युष्मत्पदस्य लकारस्य च समानाधिकरणम् अस्ति. अवगतं खलु तद्वाक्यं चित्रा भगिनी?
आम् आं भगिनि.
अत्र मध्यमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते. इदानीं प्रत्ययस्य प्रयोगः अत्र जातः. यत्र नास्ति चेदपि इति उक्तं खलु. किमर्थं? केवलं पठसि इति अस्ति. कुत्रचित् आगच्छति चेत् वयं जानीमः अस्य कर्ता त्वं पदमेव, युष्मत्पदमेव खलु. तदेव यत्र मध्यमपुरुषप्रत्ययः आगच्छति तत्र कर्तृपदस्य उल्लेखः नास्ति चेदपि वयं जानीमः अत्र कर्तृपदं युष्मत्पदम् एव भवति इति.
धन्यवादः.
तर्हि इत्युक्ते अत्र युष्मत्पदस्य लकारस्य च समानाधिकरण्यम् अस्ति इति अर्थः.
अवगतं.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः. अन्येषां कृते सन्देहः अस्ति वा?
नास्ति माता.
अस्ति नास्ति किम् उक्तम्?
नास्ति माता.
तर्हि उत्तमं. तर्हि भगिनी अग्रिमसूत्रं पठतु.
आं भगिनि. अस्मद्युत्तमः प्रथमाध्याये चतुर्थपादे सप्ताधिक एकशततमसूत्र उत्तमपुरुषविधि. अस्मदि उपपदे समानाधिकरणे सति उत्तमपुरुष प्रत्ययः स्थानिनि सति अपि अस्थानिनि सति अपि अस्मत् शब्दः प्रयुक्ते सति अप्रयुक्ते सति वा.
यदा पूर्वम् उक्तं तदा इदानीं पठसि इति पूर्वमुक्तं खलु. इदानीं पठामि अथवा पठामः इति आगच्छति चेत् वयम् अत्र जानीमः अत्र कर्तृपदं वयं वर्तते इति न उक्तं चेदपि अत्र वयं तद् ज्ञातुं शक्यते. अग्रे
शेषे प्रथमः प्रथमाध्याये चतुर्थपाद अष्टाधिक एकशततमसूत्र प्रथमपुरुषविधि. युष्मद् अस्मद् विहाय अन्येषां विवक्षायां प्रथमपुरुषप्रत्ययः.
इत्युक्ते इदानीम् अत्र लकारं नत्वा इत्युक्ते क्रियापदं दृष्ट्वा अत्र मध्यमपुरुषविधिः वा उत्तमपुरुषविधिः वा इति वयं ज्ञातुं शक्यते. एतत् उभयं वर्धयित्वा यत्किमपि अवशिष्यते तत्सर्वं प्रथमपुरुषविधिः खलु. उत्तमं. धन्यवादः भगिनि.
धन्यवादः.
लतिका भगिनी, भगिनी पठितुं शक्यते वा भगिनि?
आं भगिनि. सूत्रं परसन्निकर्षः संहिता. प्रथमाध्याये चतुर्थपादे नवाधिक एकशततमसूत्रं संहितासंज्ञा. वर्णानाम् अतिशैदः सन्निधिः अतीवसामीप्यं विना व्यवधानं संहिता संज्ञा
भगिनि किं कथं पठनीयम् अतीवसामीप्यम् अथवा विना व्यवधानं खलु
मैल् मध्ये तत्र किञ्चित् अतीवसामीप्यं विना व्यवधानम् इदानीम्
एतद्वयमपि अस्य अर्थः सन्निधिः इत्यस्य अर्थः अस्ति अतीवसामीप्यम् अथवा व्यवधानं विना क्लोस् प्राक्सिमिटि इति उक्तं खलु अत्यन्तसामीप्यम्
सन्धिकार्ये आगच्छति
तदेव सन्धिकार्यमेव
संहिता संज्ञा अस्ति उदाहरणमस्ति इति अपि इत् योगे इ योगे आ योगे पि इत् योगे य योगे आ योगे पि इत् इत् य अपि इत्यपि इत् अपि इत्यपि तत्र अगारस्य अगारस्य इ अत्यन्तं सामीप्यमस्ति अतः इकारस्य स्थाने यकारः आगच्छति अस्तु वयं पठितवन्तः तद् परसन्निकर्षः सन्ति अस्तु अग्रे पठामि वा विरामोऽवसानं विरामोऽवसानं प्रथमाध्यायस्य चतुर्थपाते दशाधिक एकशतं स एकशतसूत्रम् अवसानसंज्ञा वर्णानाम् अभावः अवसानं सत्यम् अवसानं सत्यम्
एकनिमिषं भगिनि इत्युक्ते यत्र कुत्रापि वाक्यस्य अन्तिमभागः आगच्छति अत्र समाप्तम् इति चिन्तयतु अत्र विरामः भवति खलु तत् पश्यत् किमपि न आगच्छति तादृशस्थलः स्थलं यत्र वर्तते तत्र विरामः इति वदामः तदेव अवसानम् इत्युक्ते तत्पश्चात् किमपि नास्ति इति यत्र आगच्छति तत्र विरामः इति वदामः तदेव विरामो अवसानसंज्ञा अवसानम् इति पदस्य अर्थः तत्पश्चात् किमपि न शिष्यते तर्हि तद् अवसानम्
उदाहरणं स्वरवसानयोर्विसर्जनीयः करावसानयोर्विसर्जनीयः
इत्युक्ते अत्र उदाहरणं किमर्थम् इति चेत् अत्र अवसानयोः इति शब्दः अस्ति खलु अत्र राम इति शब्दस्य अन्तिमे एकः विसर्गः अस्ति खलु
रामः
तत्पश्चात् किमपि नास्ति तर्हि अत्र अवसानः इति कथं ज्ञातुं शक्यते अत्र खरवर्णे परे अथवा अवसाने विसर्गः आगच्छति इदानीम् अवसानमस्ति तद् न तु परे खरस्ति इति कारणात् न अत्र अवसाने अस्ति इति कारणात् रामः इत्यत्र विसर्गः
अस्तु
इदानीं प्रथम अध्यायस्य चतुर्थपादः समाप्तं तर्हि विरामो अवसानम् इति सूत्रेण तत् समाप्तं तर्हि द्वितीयपादः इदानीमेव आरम्भं करणीयं भवती एव करोतु भगिनि
द्वितीय अध्यायः प्रथमद्वितीयपादौ समासाधिकारः अव्ययीभावः द्वितीय अध्याये प्रथमपादे पञ्चम सूत्रं पञ्चमं सूत्रम् अधिकारसूत्रम् अव्ययीभावसमासः सूत्रसङ्ख्या पठनीयं वा अव्ययीभाव तत्र प्रथम द्वितीय अध्याये
अत्र सर्वे पश्यन्तु समास अधिकारः अस्ति द्वितीय अध्यायस्य प्रथमपादे अपि च द्वितीयपादः सम्पूर्णरीत्या तर्हि अव्ययम् अव्ययभावसमासः इति अव्यय अधिकारः अव्ययीभाव अधिकारः अस्य परिधि कियत् पर्यन्तम् इति चेत् प्रथम द्वितीय अध्यायस्य प्रथमपादस्य पञ्चमसूत्रात् आरभ्य एकविंशतितमसूत्रपर्यन्तं यानि सूत्राणि वर्तते ते सर्वे अव्ययीभाव अधिकारे अन्तर्भूतमस्ति तदा तत्पुरुषः इति अधिकारस्य परिधिः प्रथम द्वितीयाध्यायस्य प्रथमपादस्य द्वाविंशतितमसूत्रात् आरभ्य द्वितीयपादस्य द्वाविंशतिसूत्रपर्यन्तं यानि सूत्राणि वर्तते ते सर्वे तत्पुरुषाधिकारे वर्तते शेषः बहुव्रीहि इदानीं प्रथमद्वितीयपादसम्पूर्णम् इति उक्तम् अतः शेषेन इत्युक्ते द्वितीयपादस्य द्वाविंशतितमसूत्रात् आरभ्य अत्र अष्टविंशतिसूत्रपर्यन्तं बहुव्रीहि अधिकारः शेषे बहुव्रीहि इत्यनेन बहुव्रीहिसमासस्य अधिकारः पश्चात् अत्र एकमेव सूत्रमस्ति चार्ते द्वन्द्वः इति द्वन्द्वसमासस्य विषये अत्र द्वितीयपादस्य द्वितीयाध्यायस्य द्वितीयपादस्य नवविंशतितमसूत्रम् पश्चात् तृतीयपादः आरब्धः पठतु भगिनि 48
तृतीयपादः अनभिहिते द्वितीय अध्याये तृतीयपादस्य प्रथमसूत्रं प्रथमं सूत्रम् अधिकारसूत्रं यावत् विभक्तीनां विधानं यावत् पादम् अनभिहिते कर्मादं
वा पदं वा
पादमिति तत्र यावत् पादम् इति अत्र लिखित पादमिति मम नोट् मध्ये पादमिति अस्ति यावद् पादम् अनभिहिते कर्मादिविभक्तयः विधीयन्ते अनभिहिते अनुक्ते क्रियया नोक्तः तादृशमेव यावत् पदं पादमिति आगच्छति भगिनि अधिकारसूत्रमस्ति अनभिहिते तद् यावत् अनभिहिते कर्मादिविभक्तयः विधीयन्ते अनभिहिते अनुक्ते क्रियया नोक्तः आगतं भगिनि अधिकारपादः
अहं वदामि अहं वदामि इत्युक्ते क्रियापदं यत्र न उक्तं तत्र कर्म केन अन्वयं भवति अनभिहिते न उक्तं चेत् अनभिहिते इति वदामः अत्र घटं करोति इति एकमुदाहरणमस्ति तर्हि करोति इति पदेन सह घटम् इति पदस्य अन्वयः अस्ति खलु
घटं
तर्हि क्रियते कटः इति वदामः चेत् अत्र क्रियते कटः इति पदेन अत्र अनभिहिते इति अस्ति खलु तस्य उदाहरणमस्ति अत्र तिङ्प्रत्ययः क्रियते इति अस्ति तस्य कटः इति पदेन सह अत्र अन्वयः अस्ति परन्तु कृतः कटः इति अपि वक्तुं शक्यते इति अत्र भेदः
अनभिहिते इत्युक्ते
न उक्तं चेत् न उक्तम् अभिहितं नास्ति
अनभिहिते कर्मादिविभक्तयः विधीयन्
अनभिहिते इदानीं करोति घटमिति स्वीकरोतु घटं करोति इति वदामः चेत् अत्र घटम् इति पदस्य कर्मविभक्तिः अस्ति खलु परन्तु केवलं क्रियते इति वदामः चेत् अत्र कर्मपदम् आगच्छति वा कटस्य
कटः क्रियते
इति अत्र आशयः
अस्तु अस्तु तत् कर्मणि मध्ये आगच्छति अस्तु अन्यत् कर्मणि आगच्छति कर्मणि द्वितीय
अतः वयम् अत्र कृतः इति अपि प्रयोक्तुं शक्यते क्रियते इति एव इति न न आवश्यकम्
प्रत्ययः
अनुक्ते चेत् क्रियया न उक्तं चेत्
ओ अवगतं भगिनि
क्रिया उक्तं चेत् तस्य कर्मणि विभक्ति द्वितीया एव आगच्छति खलु घटं करोति इति वदामश्चेत् अग्रे
अग्रे कर्मणि द्वितीया द्वितीय द्वितीयाभ्यास तृतीयपादे द्वितीयं सूत्रं विधि द्वितीया विभक्तेः उदाहरणं पाचकः अन्नं पचति
एकनिमिषं भगिनि अत्र केन सूत्रेण द्वितीया विभक्तिविधानम् इदानीं वयं जानीमः खलु रामः रामो रामः रामं रामो इति अस्ति खलु अत्र द्वितीया विभक्तिः आगच्छति कर्मपदम् आगच्छति तर्हि तादृशकर्मपदस्य विधायकं केन सूत्रेण इति चेत् कर्मणि द्वितीया इति सूत्रेण
कर्मणि
इत्युक्ते द्वितीया अत्र किं ज्ञातव्यम् इति चेत् द्वितीया विभक्तेः विधानं न तु कर्मपदस्य विधानं कर्मसंज्ञा पूर्वं वयं पठितवन्तः कर्तुरीप्सिततमं कर्म इत्यनेन कर्मसंज्ञा अत्र भ्रमः मा भवतु पूर्वं कारकप्रसङ्गः यदा पठितं तत्र अपादानसंज्ञा सम्प्रदानसंज्ञा करणसंज्ञा अधिकरणसंज्ञा कर्मसंज्ञा कर्तृसंज्ञा एतत् सर्वं पठितम् इदानीं तेषां विभक्ति वर्तते खलु अस्मिन् विषये चर्चा द्वितीया विभक्तेः विधानं कर्मं बोधयति इति वयं जानीमः तर्हि केन सूत्रेण इति चेत् द्वितीया विभक्तिविधानं कर्मणि द्वितीया भेदः ज्ञातव्यः वा ज्ञातव्यं वा
अस्तु कर्मणि द्वितीया अस्तु अस्तु
इत्युक्ते कर्मणि द्वितीया इत्यनेन अत्र द्वितीया इति पदं वर्तते तर्हि कर्मपदस्य द्वितीया विभक्तिः भवति इति अस्य अर्थः कर्तुरीप्सिततमं कर्म इत्यत्र कर्म इति पद अग्रे वर्तते खलु तेन कर्मसंज्ञा प्राप्नोति इति अर्थः उभयोः भेदः वर्तते अग्रे
पचनक्रियायाः फलम् अन्नम् अतः तस्य द्वितीया विभक्तिः पचनक्रिया तत्र चलति किन्तु फलम् अन्नम् आगच्छति अतः अन्नं द्वितीयविभक्तिमध्ये कर्म
तदेव पूर्वमुक्तं तत्परीक्षितसमं फलम् अन्ने वर्तते इति कृत्वा अन्नस्य कर्मसंज्ञा इति उक्तं तादृशकर्मपदस्य द्वितीया विभक्तिः भवति कर्मणि द्वितीया इति सूत्रेण इति अस्य अर्थः
कर्तुरीप्सितमं तर्हि कर्तुरीप्सिततमं समं कर्म अस्तुतमम् अग्रे पठामि वा
पठतु
चतुर्थीसम्प्रदाने ओ द्वितीय अध्याये तृतीयपादे चत्वारिंशत्तमं सूत्रं विधि चतुर्थीविभक्ति
चत्वारिंशद् वा चतुर्दश
चतुर्दशतमसूत्रं मम अस्तु विधि चतुर्थीविभक्तेः उदाहरणं पिता पुत्राय धनं ददाति कर्मण्या यमभिप्रैति स सम्प्रदानम् अतः तस्य चतुर्थीविभक्तिः तद् एकवारं विशदीकरोतु
अहं वदामि पूर्वं केन सूत्रेण चतुर्थी सम्प्रदानसंज्ञाविधानं कृतम्
चतुर्थीसम्प्रदाने चतुर्थीसम्प्रदा
अत्र सम्प्रदानसंज्ञा कर्मणा यम् अभिप्रैति स सम्प्रदानम् इति एकसूत्रम् आसीत् खलु कारक अधिकारे कर्मणा सम्बन्धं यम् अभिप्रैति इच्छति सः सम्प्रदानं प्राप्नोति इति उक्तं खलु. पुत्रपिता पुत्राय धनं ददाति, धनेन पिता पुत्रं सम्बन्धुम् इच्छति, अतः पुत्रस्य सम्प्रदानसंज्ञं भवति इति उक्तम्. तर्हि इदानीं तादृश पुत्रस्य सम्प्रदानसंज्ञं केन सूत्रे केन विभक्त्या निर्देशः क्रियते इति चेत् चतुर्थी विभक्त्या. अतः अतः वाक्ये कस्य पदस्य चतुर्थी विभक्तिः अस्ति तस्य एव सम्प्रदानसंज्ञा. वाक्यं दृष्ट्वा कर्मणा यम् अभिप्रैति, येन सह सम्बन्धम् आप्तुम् इच्छति तस्य, तदेव अभिप्रैति इति उक्तम्, इच्छति तस्य सम्प्रदानसंज्ञा भवति.
अस्तु भगिनि.
भगिनी क्षम्यताम्, यदा भवती उक्तवती पुत्रं सम्बन्धयति इति सम्प्रदानम् इति संज्ञा भवति प्रथमाध्यायस्य चतुर्थपादे द्वात्रिंशत् सूत्र अनुसारे. अत्र पुत्राय इति अत्र विधि इति अर्थं वा पुनः अत्र
विभक्ति? भगिनि पूर्वं यत् पठितं तत्र संज्ञा एव निर्दिष्टमस्ति खलु, सम्प्रदाय चतुर्थी सम्प्रदाने इति संज्ञा, सम्प्रदानसंज्ञा चतुर्थी विभक्तेः भवतु इति तस्य चिन्तनम् आसीत्. इदानीम् अस्य विधि कुत्र भवति तद् विधानमपि करणीयं खलु, तदर्थं
द्वितीया प्रदेशः इति वक्तुं शक्नुमः वा?
यत्र अस्य स्थलं कुत्रचित् अस्य विधानं भवति चेत् विधानं विधिः
एवं चेत् अत्र सुप्रत्ययः चतुर्थी विभक्त्या कृते ङे इति अहं न सम्यक् जानामि, तत् अन्यत्र भवति वा? अन्यत्र तस्य
तदेव 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 यत् इदानीं भवती चिन्तितवती ङे इति प्रत्ययः अस्ति खलु,
आम्
तदेव अत्र विधानं भवति, परन्तु अस्य चतुर्थी इति संज्ञा इदानीम् आगच्छति खलु, सम्प्रदानस्य केन विभक्त्या भवति, परन्तु इदानीं प्रत्ययः अत्र न आगतम्.
तदेव मम प्रश्नः, प्रत्ययः कुत्र? अन्य अन्य
अन्यत्र सुऔजस् इति एकं सूत्रम् आगच्छति, सुऔजस् इति अग्रे आगच्छति, यत्र प्रत्ययः इति प्रत्ययम् अध्यायः आगच्छति तत् त्रयः चतुर्थः पञ्च त्रिषु अध्यायेषु प्रत्याधिकारः तदेव बृहत् कार्यं. तत्र अहं चिन्तयामि चतुर्थ अध्याये सुप्रत्ययस्य विधानं, पञ्चमकथितप्रत्ययस्य विधानं. तर्हि अत्र यत्र चतुर्थाध्यायः यदा आगच्छति तदानीं यद् भवत्याः प्रश्नः अस्ति तस्य उत्तरम् आगच्छति. इदानीं केवलं संज्ञा अपि च विधि आगतं खलु, इदानीं विधिसूत्रम् आगतं. पूर्वं संज्ञासूत्रम् आसीत्, इदानीम् अधिकारसूत्रं विधिसूत्रम्.
अस्तु भगिनि, धन्यवादः.
धन्यवादः
भगिनी. कुत्र कुत्र द्वितीय आगच्छति, कुत्र चतुर्थी आगच्छति, तादृशं विधि विधिसूत्रमस्ति?
इत्युक्ते कर्म यत्र कर्म आगच्छति तत्र द्वितीया विभक्तिः भवतु, यत्र सम्प्रदानसंज्ञा आगच्छति तत्र चतुर्थी विभक्तिः भवतु, यत्र करणम् आगच्छति तत्र तृतीया विभक्तिः भवतु इति तस्य विधिः क्रियते, विधानम्.
अवगतम्.
उत्तमप्रश्नः एव भगिन्याः प्रश्नः, अतः सर्वेषां कृते लाभाय भवति.
सत्यं भगिनि. अग्रे पठामि वा? कर्तृकरणयोस्तृतीयः, तृतीयः कर्तृकरणयोः तृतीयः. द्वितीय अध्याये तृतीयपादस्य अष्टादशतमसूत्रं विधि तृतीयाविभक्तेः, उदाहरणं बालः लेखन्या पत्रं लिखति, सातकतमं करणं, लेखनीकरणम् अतः तस्य पदस्य तृतीया विभक्तिः अस्तु उदाहरणं श्यामेन विद्यालयः गम्यते श्यामः अनुक्तः कर्ता अनुक्तः कर्ता अतः तस्य पदस्य तृतीया विभक्तिः गम्यते क्रियापदस्य सम्बन्धः विद्यालयेन सह न तु श्यामेन तद् कर्मणि प्रयोगे आगच्छति किल श्यामेन विद्यालयः गम्यते तद् किञ्चित् भवति
इत्युक्ते अत्र कर्तरि करणे च कारके तृतीया इति आगतम् तर्हि यत्र कर्मणि प्रयोगः देवदत्तेन कृतम् इति वदामः तर्हि अत्र देवदत्तेन इति पदमस्ति खलु तस्यापि तृतीया विभक्तिः अस्ति अस्ति द्विचक्रिकया गमनम् इति वदामः चेत् अत्र द्विचक्रिकया इति पदस्यापि तृतीया विभक्तिः अस्ति तर्हि तृतीया विभक्ति कुत्र कुत्र तस्य विधानं भवति इति चेत् कर्तरि करणे च खलु अत्र इन्स्ट्रुमेण्ट् आगच्छति तत्रापि भवति कर्तृपदं यत्र आगच्छति तत्रापि भवति तर्हि तदेव अत्र उक्तम् साधकतमं करणम् इति लेखनीकरणमस्ति तादृशकरणीकरणमस्ति लेखनी तद् इदानीं चिन्ता मास्तु श्यामेन विद्यालयः गम्यते अत्र श्यामेन इति पदं कर्म बोधयति खलु कर्ता बोधयति तस्यापि तृतीया विभक्ति कर्तृकरणयोः इति अस्ति अतः कर्तृपदस्य तृतीया विभक्ति यत्र कर्मणि प्रयोगः आगच्छति तत्र अनेन अनेन भवति कर्तृकरणयोस्तृतीया इदानीं गम्यते इति क्रियापदस्य सम्बन्धः विद्यालयेन सह न तु श्यामेन सह तर्हि विद्यालयः गम्यते क्रियापदं विद्यालयः इति पदेन सह सम्बन्धः तद् वयं जानीमः कर्मणि प्रयोगः अस्ति इति कारणात् अत्र कर्म इदानीम् अत्र करणपदस्य तृतीया इति उदाहरणम् अत्र न आगतम् यत्र लेखनी इति लेखन्या लिखति इति वदामः खलु बालः लेखन्या पत्रं लिखति इत्यत्र लेखन्या इति पदस्य तृतीया विभक्तिः अस्ति तद् करणमस्ति तस्य कर्णसंज्ञा केन सूत्रेण इति चेत् साधकतमं करणम् इति अनेन करणसंज्ञा करणसंज्ञा यदा प्राप्नोति तस्य विभक्तिः का इति चेत् कर्तृकरणयोः तृतीया इति सूत्रेण विभक्तिविधानं प्रथमं साधकतमं करणम् इत्यनेन तृतीयाविभक्त्यन्तपदस्य करणसंज्ञा अस्य तृतीयाविभक्तिविधानं केन सूत्रेण इति चेत् कर्तृकरणयोः तृतीया तद्वत् श्यामेन विद्यालयः गम्यते इति कर्मणि प्रयोगः अस्ति तत्रापि श्यामेन इति तृतीयान्तं पदम् अस्य तृतीया विभक्तिः केन सूत्रेण इति चेत् तद् वयं पूर्वं दृष्टवन्तः खलु हेतु हेतु प्रयोज तत्प्रयोजको हेतुश्च इति अस्ति खलु अनेन कर्तृसंज्ञा भवति तस्य तृतीया विभक्तिविधानम् इदानीम् अनेन सूत्रेण भवति खलु
भगिनी एकवारमपि वदतु प्रयोजक हेतु
तत्प्रयोगः हेतुश्च इति सूत्रेण एकनिमिषम् कर्तृकरणयोस्तृतीया इत्यनेन कर्तृपदस्य तृतीया विभक्ति परन्तु कर्तृपदस्य विधानं केन सूत्रेण स्वतन्त्रकर्ता इति पद इति सूत्रेण कर्तृसंज्ञाविधानं स्वतन्त्रकर्ता इत्यनेन करणविधानम् इत्यनेन सूत्रेण इत्युक्ते साधकतमं करणं पूर्वं किम् उक्तं कर्मसंज्ञा कर्तृच्छिततमं कर्म इत्यनेन कर्मसंज्ञा कर्मणायम् अभिप्रैति सम्प्रदानम् इत्यनेन सम्प्रदानसंज्ञा साधकतमं करणम् इत्यनेन करणसंज्ञा स्वतन्त्रकर्ता इत्यनेन कर्तृसंज्ञा तेषां विभक्तिविधानम् इदानीं कर्मणि कर्मपदस्य द्वितीया विभक्ति कर्मणि द्वितीया सम्प्रदानपदस्य चतुर्थी विभक्ति चतुर्थी सम्प्रदाने इत्यनेन कर्म कर्तृपदस्य करणपदस्य च तृतीया विभक्ति केन सूत्रेण अनेन सूत्रेण कर्तृकरणयोः तृतीया इति सूत्रेण तदेव अनेन सूत्रेण एव अत्र प्रयोज्य कर्तुः तृतीया विभक्ति प्राप्नोति खलु तादृशकर्तुः एव कर्तृकरणयो तृतीया इत्यनेन उक्तं न तु स्वतन्त्रकर्ता इति कर्ता तस्य तु प्रथमान्तपदमेव
कर्तृः खेदुश्च
अवगतं वा
प्रयोज्य
स्वतन्त्रकर्ता इति पश्यतु धातोः अर्थद्वयम् इत्यत्र व्यापारस्य यः कर्ता सः स्वतन्त्रकर्ता अस्ति परन्तु अत्र तत्प्रयोजको हेतुश्च इत्यनेन यः यः प्रयोजकः अस्ति इति अपि अस्ति यः प्रयोज्यः अपि एकः कर्ता अस्ति खलु अस्य प्रयोज्यः कर्तुः तृतीयाविभक्ति प्राप्नोति तस्य एव तृतीयाविभक्तिविधानम् इदानीं क्रियते बालकेन अन्नं खादयति इति अस्ति खलु अत्र बालकेन इति पदं तृतीयाविभक्ति अस्ति
कर्मणि
प्रयोज्यकर्ता इति वा
प्रयोज्यकर्ता तस्य एव तृतीयाविभक्तिविधानम् अत्र अनेन सूत्रेण न तु प्रथमाविभक्त्यन्तपदस्य स्वतन्त्रकर्ता इति पदस्य नास्ति तदेव अहं दोषेण उक्तवती इति कृत्वा
कर्मणि प्रयोगे कर्ता तृतीयविभक्ति इति वयं जानीमः
तदेव तदेव तस्य तृतीया विभक्ति अस्ति इति वयं जानीमः परन्तु केन सूत्रेण कर्तृकरणयो तृतीया इत्यनेन
अस्तु अस्तु भगिनि
धन्यवादः भगिनि इदानीम् अन्यको नित्यानन्दमहोदय भवान् पठितुं शक्यते वा महोदय
आं भगिनि पेज् नम्बर् 16 ओके एकनिमिषम्
अपादाने पञ्चमी इत्यत्र आगच्छतु
49 मध्ये अपादाने पञ्चमी द्वितीय अध्याय तृतीयपादे अष्टविंशतितमसूत्र विधिसूत्र अस्ति पञ्चमी विभक्ते दर्शते विभक्ते उदाहरणं दीयते पत्रं वृक्षात् पतति पत्रं वृक्षात् पतति ध्रुवं ध्रुवं पाये अपादानं
ध्रुवम् अपाये अपादानम् अपादानकारकविधायकसूत्रमस्ति तत् अपादानकारकविधायकसूत्रमस्ति ध्रुवम् अपादाने ध्रुवम् अपाये अपादानम् यद् तर्हि यद् ध्रुवं तिष्ठति तस्य अपादानसंज्ञा खलु तस्य अधः तस्य पञ्चमी विभक्तिविधानम् अपादाने पञ्चमी इति सूत्रेण तस्य अधः वाक्ये तस्य पञ्चमी विभक्ति इति उक्तं खलु तर्हि केन सूत्रेण तस्य विधानम् इति चेत् अपादाने पञ्चमी इति सूत्रेण पत्रं वृक्षात् पतति वृक्षः अत्र ध्रुवं तिष्ठति तस्य ध्रुवम् अपाये अपादानम् इत्यनेन यत् ध्रुवं तिष्ठति तस्य एव अपादानसंज्ञा तर्हि वृक्षः अत्र तिष्ठति वृक्षात् पदं पत्रं पतति वृक्षस्य पञ्चमी विभक्ति अवगतं वा
आमां वृक्षपादसंज्ञक अथ वाक्ये तस्य पञ्चमी विभक्ति अस्ति
अस्य विधान अनेन सूत्रेण भवति
विभक्ति विभक्त्या परिचित् अस्ति सूत्र न जानाति
सूत्रमेव अष्टाध्यायी किमर्थं पठनीयम् इति चेत् सूत्रस्य अवगमनार्थम्
सप्तम्याधिकरणे च
अत्र सप्तमी पश्यतु महोदय अत्र छन्दस् अस्ति खलु सप्तमी अधिकरणे च इति अस्ति छन्दि सन्धिविच्छेदं कृत्वा पठतु सम्यक् पठतु
सन्धि सप्तमी सप्तम्य अधिकरणे च
सप्तमी 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 अधिकरणे च
सप्तमी अधिकरणे च द्वितीय अध्याय द्वितीयपादे त्रिंशत् षट्त्रिंशत् तं सूत्रं विधिसूत्रमस्ति सप्तमी विभक्ते दर्शयते उदाहरणम् अस्ति उदाहरणं दीयते बाल आसन्दे उपविशति आसन्दे सप्तमी विभक्ति उपविशति आधारोधिकरणम् आधारो अधिकरणम् आसन्द उपवेशन् क्रियाया आधारः अतः तस्य सप्तमी विभक्ति उदाहरणं द्वितीय उदाहरणम् अस्ति पाचक अन्नं पात्रे पचति पात्रे सप्तमी विभक्ति अस्ति अन्नं द्वितीयविभक्ति पात्रं पठनक्रियायाः आधारम् अतः तस्य सप्तमी विभक्ति सप्तमे अधिकरणे च सूत्रम्
इत्युक्ते अत्र अधिकरणस्य सप्तमी विभक्ति भवति इति उक्तम् केन अस्य सप्तमी विभक्तिविधानसूत्रमस्ति सप्तमी अधिकरणे च इति तर्हि अधिकरणसंज्ञा केन सूत्रेण इति चेत् आधारस्य अधिकरणसंज्ञा केन सूत्रेण इति चेत् आधारो अधिकरणम् इति सूत्रेण सूत्रं प्रथमाध्याये अधिकरणम् इति संज्ञा अस्ति अतः संज्ञाविधानं प्रथमाध्यायस्य चतुर्थपादे आसीत् इदानीम् अस्य सप्तमी विधिः अस्ति खलु सप्तमी विभक्ति भवतु इति विधिः अस्ति तत् द्वितीयाध्यायस्य तृतीयपादे आगच्छति बालः आसन्दे उपविशति अत्र आसन्दे इति पदस्य सप्तमी विभक्ति सप्तमी अधिकरणे च इति सूत्रेण भवति परन्तु आसन्दे इति पदम् अधिकरणमस्ति इति वयं कथं जानीमः इति चेत् आधारो अधिकरणम् इति सूत्रेण बालकः कुत्र तिष्ठति उपविशति इति चेत् अस्य आधारः अस्ति आसन्दः तर्हि आसन्दः इति पदस्य अधिकरणम् इति संज्ञा यदा भवति तस्य सप्तमी विभक्ति अपि भवति तर्हि उपवेशनक्रियायाः आधारः आसन्दः अतः तस्य सप्तमी विभक्ति भवतु अवगतं वा अधिकरणपदस्य सप्तमी विभक्ति सप्तमे अधिकरणे च इति सूत्रेण अधिकरणकारकं केन सूत्रेण विद्यते इति चेत् आधारो अधिकरणम् एतत् सर्वे पठतु कारकविधायकसूत्राणि किं विभक्तिविधायकसूत्राणि किम् इति पृथक् लिखतु अन्यथा भ्रमः भवति अग्रे पठतु विधि प्रातिपदिकार्थ अहं सूत्रं पठामि प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा तत्र प्रथमाविभक्तिविधानसूत्रमस्ति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा hmm. इत्युक्ते प्रातिपदिकार्थ लिङ्ग स्त्रीलिङ्ग प्रातिपदिकं वयं जानीमः खलु सुबन्धपदं यत्र आगच्छति तत्र पूर्वं प्रातिपदिकमस्ति प्रातिपदिकस्य यः अर्थः तदेव प्रथमानुकृत्यन्तस्य अपि अर्थः लिङ्ग स्त्रीलिङ्ग पुल्लिङ्ग बहु नपुंसकलिङ्ग
परिमाणवचनमात्रे प्रथमः
परिमाणम् इत्युक्ते अत्र मेषर् इति अस्ति खलु तदेव वचनम् इत्युक्ते एकवचनं बहुवचनम् एतादृशम् मात्रशब्दस्य प्रत्येक इत्युक्ते मात्र कुत्र कुत्र आगच्छति इति चेत् प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमाविभक्ति भवति इति अर्थः
षष्ठी शेषे सूत्रमस्ति द्वितीयाध्याये तृतीयपादे
अत्र उदाहरणम् एकनिमिषम् अत्र उदाहरणमस्ति प्रातिपदिकार्थमात्रे इत्यत्र उच्चैः नीचैः एतादृशशब्दः यत्र आगच्छति तत्रापि प्रथमाविभक्ति एव लिङ्गम् इत्यनेन कुमारी वृक्षः कुण्डलं त्रिषु स्त्रीलिङ्गे पुल्लिङ्गे अपि च नपुंसकलिङ्गे तत्र प्रथमाविभक्ति परिमाणग्रहणम् इत्युक्ते अत्र मेषर् अस्ति द्रोणः खारी ओ आठकम् इति दत्तमस्ति वचनग्रहणम् एकः द्वौ बहवः अत्र पश्यति एतत् सर्वं प्रथमा विभक्त्यन्तपदमेव तदेव अत्र प्रथमा विभक्ति कुत्र कुत्र भवति इति उक्तम् अग्रे पठतु
षष्टिशेषे रिमेनिङ्ग् द्वितीयाध्याये तृतीयपादे पञ्चशत् तं सूत्र विधि षष्टिविभक्ते उदाहरणं भारतदेशस्य प्रधानमन्त्री रामानुजस्य सप्तम समतामूर्तिम् अनावरत् समतामूर्तिम् अनावरत्
अनावरत्
भारतदेशस्य सप्तमी षष्ठीविभक्ति अस्ति
अत्र सम्बन्धः अस्ति खलु भारतदेशस्य
प्रधानमन्त्री
देशस्य प्रधानमन्त्री कस्य प्रधानमन्त्री भारतदेशस्य प्रधानमन्त्री खलु अत्र भगवद्गी भगवत् रामानुजस्य समतामूर्तिं कस्य समतामूर्ति भगवत् रामानुजस्य इति अत्र सम्बन्धः तर्हि षष्टि इति कारकं नास्ति इति अवगच्छतु अतः अत्र केवलं विभक्तेः विधानमेव अत्र किमपि अत्र न दत्तम् एतत्संज्ञा कारकसंज्ञा किमपि अत्र नास्ति शेषे इति उक्तम् अतः एते कारकं नास्ति तत्र षष्टिविभक्तेः विधानम् अत्र किमपि कारकं नास्ति धन्यवादः महोदय उत्तमं
धन्यवादः
भगिनि क्षम्यताम् अनावरत् इत्युक्ते किम्
अत्र आच्छादनं कृतं खलु वयं कर्टन् रैसर् इति वदामः खलु अत्र तस्य उद्घाटनं कृतम् इति
अस्तु अत्र धातुः आवरणम् इति आवृतम्
अनावरत् न वृणम् अनावृणम् न आवृणम् खलु तदेव
वृदातु एव अस्तु
रामनाथन् महोदय भवान् पठितुं शक्यते वा पश्चात् सुब्बराव महोदय भवान् पठतु न गतसप्ताहे न पठितवान् रामनाथ महोदय अपि गतसप्ताहे न पठितवान् इदानीं पठतु
चतुर्थः पादः अर्धधातुके अर्धधातुके द्वितीयाध्याये चतुर्थपाद पञ्चत्रिंशत् सूत्रः अधिकारसूत्रः अनेवद लिङ्गः हनो हनोवद लिङ्गः द्वितीय द्वितीयाध्याये चतुर्थपाद द्विचतुर्दशसूत्रः विधिसूत्रं हण्धातु स्थाने हण्धातु स्थाने वद् आदेशः अर्कधातुकलिङ्ग अर्कधातुकलिङ्गप्रत्यये परे उदाहरणं हनन् अदादिगणे हिंसगत्योः हन्ति हन्ति लटिलकारे हन्तु लोटिलकारे अहन् लगिलकारे हन्त्यत् विधिलिङ्गः सर्वधातुकप्रत्ययपरे विधिलिङ्गः प्रत्ययपरे अपि सर्वधातुक सर्वधातुकम् इत्यतः वदयात् आशीर्लिङ्गः अर्धधातुके आशीर्लिङ्गप्रत्यये परे
एकनिमिषम् चतुर्थपाद पादे किम् आगच्छति आर्धधातुक नकाराः आगच्छति तर्हि अधिकारसूत्रम् अस्य परिधिः चतु द्वितीय अध्यायस्य चतुर्थपादस्य षट् त्रयोत्रिंशत् सूत्रात् आरभ्य सप्तपञ्चाशत् सूत्रपर्यन्तं भवति अतः द्वितीय अध्यायस्य चतुर्थपादे वर्तते सूत्रं तत्र एकं विधिसूत्रमस्ति हनो वध लिङि तर्हि लिङ्लकारे हन् धातोः वद् आदेशः भवति लिङ्लकारः इत्युक्ते विधिर्लिङ् आचिर्लिङ् विधिर्लिङ् कुत्र भवति इति चेत् सार्वधातुकलकारेषु परन्तु सार्वधातुकप्रत्यये परे विधिर्लिङ् भवति आर्धधातुकप्रत्यये परे आचिर्लिङ् यदा विधीयते तथा आचिर्लिङ् लकारस्य वद् धातोः हन् धातोः वध् आदेशः भवति तर्हि आचिर्लिङ् लकारे रूपं किं भवति वधियात् इति भवति परन्तु विधिर्लिङ् लकारे खनियात् इति रूपं तदेव अत्र उक्तम्
आगे पठामि वा
पठतु
लुङ्गि लुङ्गि च द्वितीयपाठे चतुर्थ
क्षम्यतां भगिनि अत्र लिङ्ग् आशीर्लिङ्ग् तत्र बहु भेदः नास्ति वा
नास्ति अत्र सार्वधातुकलकाराः यत्र लट् लोट् लिङ्ग् विधिर्लिङ्ग् इति वयं दृष्टवन्तः खलु पाणिनीयव्याकरणे अत्र सार्वधातुकं प्रत्ययः आगच्छति तर्हि विधिर्लिङ्ग् लकारेषु आशीर्लिङ्ग् अपि अस्ति खलु आशीर्लिङ्ग् लकारस्य पुरतः कीदृशप्रत्ययः आगच्छति इति चेत् आर्धधातुकप्रत्ययः आगच्छति यदा आर्धधातुकप्रत्ययः आगच्छति तत्र खन् धातोः वस् आदेशः भवति तर्हि लुङि च इति सूत्रेण लुङ् लकारे अपि खन् धातोः वध् आदेशः भवति वदतु महोदय
लुङि च सूत्र सूत्रच हन् धातोः स्थाने वद् आदेशः भवति अर्कधातुक अर्कधातुके लुङि प्रत्ययपदे परे अवधीत लुङि अर्कधातुकलुङि प्रत्यये परे महोदय अर्कधातुकपरे
हन् धातोः वध आदेशः लुम् प्रत्ययः प्रत्यये अपि भवति इति अत्र उक्तम् अत्र कः क्लेशः लुङि च इत्येव खलु पूर्वसूत्रस्य अनुवृत्तिसम्पूर्णरीत्या अत्र आगच्छति अर्थधातुके लुङि प्रत्यये परे च इति अर्थः
आत्मनपदेष्व
लुङ् इति किमस्ति चेत् लङ्लकारः अस्ति खलु
लुङ्लकारः अस्ति
तदेव अत्र अवधीत् इति
आत्मनपदे आत्मने पदेष्व आत्मनपदेष्वन्यु तरस्य आत्मन आत्मने आत्मने पदेष्वन्य तरस्य
आत्मन एकनिमिषम् आत्मने पदेषु अन्यतरस्याम् महोदय शृणोतु अत्र किञ्चित् समयं स्वीकृत्य सन्धिविच्छेदं कृत्वा पठित्वा वर्गे आगच्छतु यतोहि अत्र सूत्रसङ्ख्या वर्तते अष्टाध्यायी गत्वा कथं पदविच्छेदनं करणीयम् इति पश्यतु यतोहि आत्मने पदेषु अन्यतरस्याम् इति पठनीयम् द्वितीय अध्यायस्य चतुर्थपादस्य चतुश्चत्वारिंशत्तमसूत्रमस्ति
हन्धादोः स्थाने स्थाने वत् आदेशः अन्यतरस्य वैकलिक
अन्यतरस्याम् इत्युक्ते विकल्पेन इति अर्थः
विकल्पेन अर्धधातुके लिङ् प्रत्यये परे अवतिष्ठ आगतः अङ्गे अङ्गे यमहन् अङ्गे यमहन् सूत्रस्य प्रथमपादे प्रथमपादे प्रथम अध्याये द्वितीयपादे अष्टाविंशति सूत्र
अत्र हन्धादोः विकल्पेन
विकल्पेन
इत्युक्ते अत्र वध इति अपि भवितुम् अर्हति खन् इति अपि भवितुम् अर्हति तर्हि आवधिष्ठ आहदः स्थान्तरूपमस्ति आहदः अपि च आवधिष्ठ इति रूपद्वयम् इत्युक्ते आ यम हनः इति सूत्रमस्ति खलु अनेन सूत्रेण आम् उपसर्गः यदा आगच्छति अत्र हन् इति आदेशः भवति अत्र हन् एव विधीयते वद् आदेशः न भवति परन्तु वथिष्ठा इत्यत्र तान्तरूपमस्ति अत्रापि आहत इति लुङि अस्ति खलु आवधिष्ठ इति अपि लुङिरूपमेव परन्तु अत्र शुष्कं भवति उभयमपि लुङिरूपमेव
द्वितीयाध्याये चतुर्थपादे द्विपञ्चपञ्चशत् सूत्रः विधिसूत्रम् अष्टादोः स्थाने भू आदेशः अर्धधातुके प्रत्यये परे उणे परे अर्धधातुकप्रत्यये परे उणे चेत् भू आदेशः भवति अष्टादुः
एकनिमिषं महोदय एकनिमिषम् अत्र किमर्थम् आवधिष्ठ आहदः आहता इति चेत् अत्र पत्नेपतिरूपं नास्ति आत्मनेपतिरूपमस्ति इति कृत्वा अत्र तान्तरूपम् इति अहं दोषेण उक्तवती खलु अतः तत् किमस्ति इति चेत् आत्मनेपतिप्रत्ययः तस्य लुमन्तरूपम् अस्ति
उदाहरणम् अस अदादिगण भूमि अस्ति लटिलकारे अस्ति अस्तु लोटिलकारे अस्ति आसीत् लिङ्लकारे अस्ति स्यात् वित्लिङ्ग् अस्ति सर्वधातुकप्रत्यये परिगणेष्ये भूत्वा भूत्वा कृत्वान्ते भूतवान् कृत्वान्ते भविष्यति लुटिलकार भवितुं तुमन्न प्रत्यय अर्धधातुके प्रत्यये परिगणेष्ये
एकनिमिषम् एकनिमिषम् इदानीम् अत्र आदेशः पूर्वं धातु आदेशः उक्तमस्ति खलु हन् धातोः वध् आदेशः भवति इति इदानीं भू धातोः अस् धातोः भू आदेशः भवति वयं जानीमः अत्र भू भवति भुवि एतादृशरूपम् आगच्छति खलु तत्र कस्मिन् लकारे भवति इति चेत् लटि लोटि लङि सार्वधातुकप्रत्ययपरे आर्धधातुकप्रत्ययपरे तान्तरूपं तवतु लुट् लट् लकारः तुमुनन्तरूपम् आर्धधातुकप्रत्ययपरे तत्र सर्वत्र अस् धातोः भू आदेशः भवति इति ब्रू धातोः वच् आदेशः भवति
ये ब्रू धातोः वच् आदेशः भवति मीन्स् अर्थधातुकप्रत्यये परे ओणिसि ब्रुच् अर्थाधिगणे व्यान्तवचिः
वक्तायां वाचि इत्यस्मिन् अर्थे ब्रू धातोः प्रयोगः तर्हि ब्रुविति इति लटीरूपं ब्रुवितु इति लोटि अब्रवीद् इति लङि ब्रूयात् इति विधलिङि कुत्र भवति सार्वधातुकप्रत्ययः परे अस्ति चेत् इदानीम् अत्र ब्रू एव धातुः तर्हि आर्थधातुकप्रत्ययः यदा परे आगच्छति ब्रू स्थाने वच् आदेशः भवति वच् प्रातिपदिकस्य प्रथमान्तं पदमस्ति वाक् खलु वाक् वाचः वाचौ वाचौ वाचः तर्हि वाक् एव वक्तुम् उक्त्वा उक्तवान् अत्र वाकारस्य सम्प्रसारणं भवति उकारादेशः भवति तर्हि उक्त्वा उक्तवान् अर्थधातुकप्रत्ययपरि
लुक् प्रकरणम् अग्रे गच्छामि वा
धन्यवादः महोदय न धन्यवादः इदानीं किम् उक्तम् इति चेत् वयं धातु आदेशः दृष्टवन्तः इदानीं लुक् प्रकरणं लुक् इति किम् इति पश्यामः धन्यवादः महोदय उत्तमं शिवा भवान् पठितुं शक्यते वा एकनिमिषम् अनन्तरं पठतु इदानीं सुब्राव् महोदय भवान् गतसप्ताहे न पठितवान् खलु
भगिनि क्षम्यतां मम एकः सन्देहः अत्र ब्रुवो ब्रुवो वचिः इति सूत्रम् अस्ति किल तत्र यदा सार्वधातृकप्रत्यये परे ब्रू इति धातोः ब्रवीति अब्रवीत् ब्रूयात् इति रूपं भवति आर्धधातुक तुमुन् प्रत्ययमपि अत्र आर्धधातुकप्रत्यये परे लृट् रूपे वक्ष्यति इति भवति तुमुन् अस्ति चेत् वक्तुम् इति भवति सम्प्रसारणं किमर्थं न तत्र अभवत् तत् किञ्चित् भ्रमः
अत्र पश्यतु सम्प्रसारणं कदा भवति इति ज्ञातव्यं खलु
आम्
अत्र कित् अस्ति वा तुमुनते
न तत्र नास्ति कित् नास्ति
अतः कित् नास्ति इति कारणात् अत्र नास्ति खलु परन्तु तान्ते तावत् अन्ते कित् अस्ति खलु अतः अत्र सम्प्रसारणं भवति
केन सूत्रेण इति
तद् वयं पठिष्यामः
यतोहि
अत्र सम्प्रसारणं कुत्र कुत्र भवति इति एकसम्पूर्णं प्रकरणम् आगच्छति सम्प्रसारणसंज्ञा अस्य विधायकम्
अस्तु तरवत्र एव आगच्छति चिन्ता मास्तु अस्तु 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 भगिनि धन्यवादः
धन्यवादः इदानीं लुक् प्रकरण सुब्राव् महोदय भवान् पठतु अनन्तरं शिव पठित्वा वयं स्थगयामः
भगिनी
पठतु
आगामिवर्षे अहं पठिष्यामि
चिन्ता मास्तु तर्हि शिव भवान् पठतु
मत एकनिमिषं मत
करपत्रम् अस्ति खलु शिव
हा अस्ति मत मत एकनिमिषम् मतः कुत्र अस्ति इति पुनः एकवारं वदतु मत
एकनिमिषम् अत्र पुटसङ्ख्या 18 मध्ये आगच्छतु अत्र सूत्रसङ्ख्या 52 अस्ति लुक् प्रकरणम् इति अस्ति
प्रभृतिभ्यः शपः लुक् प्रकरणं
न प्राप्तं चेत् चिन्ता मास्तु महोदय विमला भगिनी समयः जातः इति एव तर्हि ततः वयम् आगामिनि सप्ताहे पठिष्यामः इदानीं शिव भवानेव अत्र शान्तिमन्त्रम् उक्त्वा समापयतु पश्चात् कस्यापि सन्देहः अस्ति चेत् तद् पृच्छतु
अस्तु ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः
धन्यवादः
मातः
धन्यवादः सर्वेषां नमस्काराश्च